एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारस्य प्रमुख राजनीतिक दलानां च मध्ये आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य निर्वाचनस्य सम्पादनाय वातावरणं निर्मातुं सहमतिर्धृतास्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य प्रधानमन्त्रिणा सुशीला कार्किणा, नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा भिदेन, नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलीना, नेपाली कम्युनिष्ट दलस्य संयोजकेन पुष्पकमला दाहाल प्रचण्डेन च सहितै त्रयाणां प्रमुखाणां दलानां नेतृभिस्सह सम्बुते विमर्शने निर्वाचनस्य सम्पादनाय सहमतिर्धृतास्ति इति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः असूचयत्। निर्वाचनस्य वातावरणस्य निर्माणाय बालुवाटार स्थाने पुनः विमर्शनस्य आयोजनायै च सहमतिर्धृतास्ति इति असूचयत्। राष्ट्रपतिना पौडेलेन देशस्य वर्तमानायाः जटिलावस्थायाः समाधानाय निर्वाचनमेव उपयुक्तो विकल्पोऽस्ति इति कथयता आगामिनः फाल्गुन मासस्य एकविंशे दिवसे निर्धारितं प्रतिनिधिसभा सदस्यानां निर्वाचनं सफलीकर्तुं प्रधानमन्त्रिणा सहितः प्रमुख राजनीतिक दलानां शीर्ष नेतारः अनुरुद्धा आसन्। आगामिनो माघ मासस्य एकादशे दिवसे सम्पत्स्यमानस्य राष्ट्रियसभायाः सदस्यानां निर्वाचनस्य कृते निर्वाचनायोगेन सप्तषु प्रदेशेषु निर्वाचनाधिकृतयः नियुक्ताः वर्तन्ते। पञ्चसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीय राष्ट्रियसभा सदस्य निर्वाचनाधिनियमस्य सप्तम प्रकरणस्य अनुसारेण आयोगेन सप्त जनपद न्यायाधीशाः निर्वाचनाधिकृतयः निर्धारिताः वर्तन्ते। अस्यैव मासस्य षोडशे दिवसे सम्बद्ध प्रदेशानां प्रदेश निर्वाचन कार्यालयेषु निर्वाचनाधिकृत कार्यालयानां स्थापनस्य कार्यक्रमः निश्चितो वर्तते। नियुक्तेषु निर्वाचनाधिकृतेषु कोशी मधेश बागमती प्रदेशानां कृते क्रमेण विष्मराज प्रसाई, सुभाष बाबु गिरी, गीता श्रेष्ठश्च वर्तन्ते। तथैव गण्डकी लुम्बिनी कर्णाली सुदूरपश्चिम प्रदेशानां कृते क्रमेण हिमलाल बेलवासे, प्रकाश प्रसाद पण्डित, दीपक ढकाल, भुवन सिंह थापा च निर्वाचनाधिकृता नियुक्ता सन्ति। उद्योग वाणिज्य पूर्ति मन्त्रिणा अनिल कुमार सिन्हा इत्यनेन, संचार सूचना प्रविधि मन्त्रिणा जगदीश खरेलेन, प्रधानमन्त्रिणः राजनीतिक परामर्शदात्रा अजय भद्र खनालेन सहितस्य समूहेन नेपाली कांग्रेस नेकपा एमाले दलयोः क्षतिग्रस्त केन्द्रीय कार्यालयोः निरीक्षणं विहितम् वर्तते। निरीक्षणस्य पश्चात् मन्त्री सिन्हा विभिन्न कालखण्डेषु राजनीतिक समाधानं प्रदत्तवता नेपाली कांग्रेस दलेन वर्तमान परिस्थितावपि देशाय राजनीतिकं समाधानं प्रदातुं प्रयतनीयमिति उदैरयत्। मन्त्री जगदीश खरेलः प्रतिनिधिसभायाः निर्वाचनस्य वातावरणं निर्मितमस्ति इति चर्चयन् सर्वकारस्य प्रमुख राजनीतिक दलानां च मध्ये संवादः सञ्चलन् अस्ति इति अवोचत्। मन्त्री खरेलः जेएनजी युववर्गस्य आन्दोलने नेपाली कांग्रेस नेकपा एमाले दलयोः केन्द्रीय कार्यालयोः जातां क्षतिं प्रति दुःखं प्रकटयन् प्रधानमन्त्रिणः सुशीला कार्किणः आकांक्षायाः अनुसारेण दल कार्यालय भवनस्य पुनः निर्माणं कथं जायमानम् अस्ति इति ज्ञातुम् आत्मभि अत्र प्राप्तमस्ति इति असूचयत्। प्रधान न्यायाधीशः प्रकाशमान सिंह राउत कथयति महान्यायाधिवक्तृ कार्यालयेन जघन्यापराधस्य न्यायप्रणाली प्रभावकारिणी विधीयमाना अस्ति। महान्यायाधिवक्तृ कार्यालयस्य पञ्चसप्ततितम स्थापना दिवसस्य अवसरे पूर्वेद्यः आयोजिते कार्यक्रमे प्रधान न्यायाधीशः राउत महान्यायाधिवक्तृ कार्यालयस्य अभियोजने सुधारः सम्भूतोऽस्ति, अतिरिक्तमपि वैज्ञानिकरूपेण अनुसन्धानम् अभियोजनं च विधेयमिति उदैरयत्। नेपाली कांग्रेस दलेन अद्य केन्द्रीय कार्य सम्पादन समितेः उपवेशः आहूतो वर्तते। दलस्य केन्द्रीय कार्यालये अद्य दिवा एकवादनाय आहूते उपवेशे अस्यैव पौषमासस्य षड्विंशात् दिवसात् एकोनत्रिंशं दिवसं यावत् निर्धारितस्य दलस्य पञ्चदशतमस्य महाधिवेशनस्य आगामिनः माघमासस्य एकादशे दिवसे सम्पत्स्यमानस्य राष्ट्रियसभायाः निर्वाचनस्य आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य विषयेष् च विमृक्ष्यते इति ज्ञापितम् वर्तते। एतत्पूर्व निर्धारिताया कार्यतालिकाया अनुसारेण निर्धारिते एव समये कार्य सम्पादयितुं समयस्य अभावस्य पश्चात् महाधिवेशनस्य कार्यतालिकायां परिवर्तनं विधेयमिति विषये चर्चाया जायमानस्य अवस्थायां नेपाली कांग्रेस दलेन केन्द्रीय कार्य सम्पादन समितेः उपवेशः आहूतो वर्तते। मधेश प्रदेशेन सहितेष् तराई क्षेत्रस्य जनपदेष् शीतलहर्या कारणेन जनजीवनं प्रभावितमस्ति। शैत्यस्य वृद्धेः कारणेन कतिपय पालिकाष् विद्यालयाः पिधापिताः वर्तन्ते। दिवासमयेऽपि कुहरस्य विद्यमानावस्थायाः कारणेन बालबालिकाः ज्येष्ठनागरिकाः श्रमिकाश्च प्रभाविताः वर्तन्ते। शैत्यस्य वृद्धेः कारणेन जनकपुर उपमहानगरपालिकया नगरक्षेत्रे दारूणां वितरणं विधाय विभिन्नेषु स्थानेषु अग्निप्रज्वालनं विहितमस्ति। शैत्यस्य प्रभावः बारापर्सा धनुषा सप्तरी सर्लाही जनपदेषु अपि वर्तते। गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतस्य जनजीवनाम् आन्दोलनस्य क्रमे सम्भूतानां घटनानाम् अनुसन्धानाय निर्मितेन आयोगेन तात्कालिक गृहसचिवस्य प्रहरी प्रमुखस्य प्रमुख जनपदाधिकारिणश्च स्थानसीमबन्ध अपसारितोऽस्ति। आयोगेन ह्य तात्कालिकस्य गृहसचिवस्य गोकर्णमणि दुआडी इत्यस्य प्रहरी महानिरीक्षकस्य चन्द्रकुबेर खापुङ इत्यस्य काष्ठमण्डप जनपदाधिकारिणश्च छविलाल रिजालस्य स्थानसीमबन्ध अपसारितो वर्तते। काष्ठमण्डप महानगरपालिकायाः शिक्षा विभागेन सप्तोत्तरैकशतं विद्यालयाः सम्पर्के आगन्तुं संसूचिताः वर्तन्ते। महानगरक्षेत्रस्य अभ्यन्तरे सप्तोत्तरैकशतं विद्यालयाः भौतिकरूपेण सञ्चाल्यमानाः न सन्तीति प्राप्तेः पश्चात् सम्पर्के आगन्तुं सार्वजनिक सूचना प्रकाशिता वर्तते। विद्यालयानां सञ्चालनाय अनुमतिं गृहीत्वापि सम्प्रति स्थलगतरूपेण कतिपय विद्यालयाः सञ्चाल्यमानाः न सन्तीति प्राप्तेः पश्चात् एवं सूचना प्रकाशिता अस्ति इति सूचनायाम् उल्लिखितं वर्तते। सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकारिध्यक्षः डाक्टर महेन्द्र विष्टः नागरिकान् प्रथमं मत्वा नागरिकाणाम् आकांक्षायाः अनुसारेण सत्य तथ्य सामग्रीणाम् उत्पादनं प्रसारणं च सार्वजनिक सेवा प्रसारण नेपालस्य मुख्य दायित्वमस्तीति उक्तवान् वर्तते। सार्वजनिक सेवा प्रसारण रेडियो नेपालात् सेवानिवृत्त कर्मचारिणां सम्मानाय ह्य रेडियो नेपाले आयोजिते कार्यक्रमे अध्यक्षः विष्टः रेडियो नेपालस्य नेपाल टेलिभिजनस्य च एकीभवनस्य पश्चात् अतः परं कर्मचारिभिः अनुभवस्य समय सापेक्षस्य च रूपेण स्वस्य कार्यं विधातव्यम् इति सर्वान् निर्दिष्टवान्। नेपाल चीन देशयोः सीमा प्रवेश बिन्दोः पूर्णरूपेण सञ्चालनेन सहैव विगतात् वर्षद्वयात् उपरितन मुस्ताङ्ग जनपदस्य स्थानीयैः वृत्त्युपार्जनं प्राप्तमस्ति। कोरला सीमा प्रवेश बिन्दोः नेपाल पक्षतः सीमा क्षेत्रे चीन पक्षतः लिजी आपणे च उपरितन मुस्ताङ्ग जनपदस्य व्यवसायीभिः व्यवसायः सञ्चाल्यमानोऽस्ति। सीमा प्रवेश बिन्दुरयम् अशीत्युत्तर द्विसहस्रतम वैक्रमाब्दस्य कार्तिक मासस्य सप्तविंशे दिवसे उद्घाटित आसीत्।